इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य सहायोद्धार कार्याणि पुनर्वास प्रयासाञ्च समीक्षितुं केरलस्य वायनाड जनपदं प्रति यास्यति। तदनु असौ कन्नूर नगरं प्रति गत्वा तत्र भूस्खलन प्रभावित क्षेत्राणां विमानेन निरीक्षणं करिष्यति। श्रीमोदी अत्रान्तरे भूस्खलन प्रभावित क्षेत्राणि अपि अवलोकयिष्यति, यत्र तस्मै आपत्मोचनबलैः विहित प्रयासानां कार्याणां च विषये सूचना प्रदास्यते। पुनर्वास कार्याणां प्रगतिम् अपि श्रीमोदी द्रक्ष्यति। एतदनन्तरं प्रधानमन्त्री शिबिराणां चिकित्सालयानाञ्च भ्रमणं करिष्यति, यत्र असौ भूस्खलनेन पीडितजनैः सह मिलित्वा तेषां च स्वास्थ्यविषये वार्तां साधयिष्यति। तदनन्तरं श्रीमोदी एकं समीक्षोपवेशनं विधास्यति, यत्र तस्मै घटनानां प्रचाल्यमाणानां सहाय्य प्रयासानाञ्च सन्दर्भे सविस्तारं सूचना प्रदास्यति। केन्द्रीय मन्त्रिमण्डलेन प्रधानमन्त्री आवास योजनायाः द्वितीय नगरीय संस्करणम् अनुमोदितम्। केन्द्रीय सूचना प्रसारण मन्त्री अश्विनी वैष्णवः प्रोक्तवान् यत् अस्याः योजनायाः अन्तर्गतं 3 कोटिः नवीनानि गृहाणि निर्मास्यन्ते। श्रीवैष्णवः स्पष्टीकृतवान् यत् एतेष् 2 कोटिः गृहाणि ग्रामीणक्षेत्रेभ्यः, तथैव 1 कोटिः नगरीयक्षेत्रेष् निर्मास्यन्ते। प्रधानमन्त्रिणः श्रीमोदिनः अध्यक्षतायाम् आर्थिक विषयक मन्त्रिमण्डल समित्या रेल मन्त्रालयस्य 8 परियोजनाः अनुमोदिताः, यासां समग्रमूल्यं 750+6,24,000 कोटिरूप्यकाणि सन्ति। उपवेशनानन्तरं नवदिल्ल्यां वार्ताहरेभ्यः सूचनां प्रददन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः प्रख्यापितवान् यत् अनुमोदित परियोजनास् 7 राज्यानां 14 जनपदाः सम्मिलिताः विद्यन्ते। ओडिशा, महाराष्ट्र, आन्ध्रप्रदेश, झारखण्ड, बिहार, तेलंगाना, पश्चिमबंगाल राज्येभ्यः आभिः परियोजनाभिः गतिं मेलिष्यति। अपि च आकांक्षिणः जनपदाः आदिवासी क्षेत्राण्यपि विकसिताः भविष्यन्ति। लोकसभाध्यक्षेण ओमबिरला इत्यनेन ह्यः संसद्भवन परिसरे 18 लोकसभायाः नवनिर्वाचित सांसदेभ्यः आयोजितस्य अभिविन्यासस्य कार्यक्रमस्य उद्घाटनं विहितम्। अत्रावसरे श्रीबिरला इत्येषः न्यगादीत् यत् अध्यक्षः चित्तवृत्तेः उत वा दलानाम् आधारे कार्यं न समाचरति, अपि तु सत्यम् इदमस्ति यत् अध्यक्षः संसत्सदस्यानाम् अधिकारान् संरक्षयति। असौ भणितवान् यत् नवनिर्वाचिताः सदस्याः नवीनविचारैः सह अनुभवी सदस्यानां समन्वयेन लोकसभायाः कार्याचरणे गुणवत्तां संवर्धयिष्यन्ति। पैरिस ओलंपिक क्रीडायां भारतीय मल्लयोद्धा 21-वर्षीय अमन सेहरावत पुरूषाणां 50 किलोग्राम भारवर्गे ह्यः कांस्यपदकं समर्जितवान्। पदकमिदं भारतस्य 6वं पदकमस्ति। अत्रावसरे राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः जगदीप धनखड़ः, प्रधानमन्त्री च नरेन्द्र मोदी भारतीय मल्लयोद्धे अमन सेहरावताय वर्धापनानि अयच्छन्। भारत ऋतुविज्ञान विभागेन आगामिनः 6 दिनानि यावत् देशस्य विभिन्नेष् भागेषु अतिवृष्टेः संभावना अभिव्यक्ता। विभागानुसारि सप्ताहपर्यन्तं पूर्वोत्तरीय पश्चिमीय उपहिमालय क्षेत्रेष् ध्वनिना सह महती वृष्टिः भविष्यति। इति वार्ताः।